सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः, पश्चात् पाठं प्रति गच्छेम। भगिनी एकवारं तान् श्लोकान् स्मारयतु।
ॐ येनाक्षरसमान्यायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमच्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादाः भगिनी। संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति। ते धातवः सर्वे दशसु धातुगणेषु स्थापिताः। प्रत्येकं धातुः कस्मिन् गणे अस्ति इति चिन्तनं कदा आवश्यकं, धातुगणचिन्तनं कुत्र भवति, धातुगणचिन्तनं कुत्र करणीयम् इति चिन्तयामश्चेत् सार्वधातुकप्रक्रियायाम् एव धातुगणचिन्तनं भवति। सार्वधातुकलकारेषु अपि च सार्वधातुककृत् प्रत्ययानां प्रसङ्गे एव धातुगणचिन्तनम् आवश्यकम्। इत्युक्ते केवलं चतुर्षु लकारेषु एव, लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु अपि च सार्वधातुककृत् प्रत्ययेषु, सदृशाणच् प्रत्ययेषु एव गणचिन्तनम् अपेक्षितम्। दशसु गणेषु प्रथमः गणः भुवादिगणः। भुवादिगणे भू इति धातुः, तस्मिन् गणे प्रथमसदस्यः। भुवादिगणे शप् इति विकरणप्रत्ययः धातुतिङ् प्रत्ययोः मध्ये आयाति। शप् प्रत्ययः षित्वात्, तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञकप्रत्ययः शप् प्रत्ययः। धातुतिङ् प्रत्ययोः मध्ये शप् आयाति इति कृत्वा इगन्तधातुषु भुवादिगणे सार्वधातुक आर्धधातुकयोः सूत्रेण गुणकार्यं धात्वङ्गे भवति। इगुपधधातुषु पुगन्तलघूपधस्य च इति सूत्रेण भुवादिगणे गुणकार्यं भवति इति वयं दृष्टवन्तः। तदर्थमेव भूधातुं स्वीकुर्मः चेत् तत्र इगन्तधातुः अस्ति इति कृत्वा शपं निमित्तीकृत्य भूभो भवति। पश्चात् सन्धिकार्यं भवति, तत्र एचोयवायावः इति सन्धिसूत्रेण यान्तवान्तदेशसन्धिः भूत्वा ओकारस्य स्थाने अवादेशः भूत्वा भव् इति भवति। भवयोगः आ इति शप् इत्यस्मात् आगतः, भव इति अङ्गं भवति। तिप्रत्ययं निमित्तीकृत्य भव इति अङ्गं भवति, तत्र किमपi अन्यत् अङ्गकार्यं नास्ति। भवयोगः ति भवति इति रूपं सिद्ध्यति इति भवादिगणस्य विषयः। अदादिगणे आदौ शप् आयाति, किन्तु शपं प्रबाध्य अदिप्रभृतिभ्यः शपः इति सूत्रेण शपः लुक् भवति। लुक् इत्युक्ते एकविध लोपः। लुक् इत्युक्ते एकं लोपकार्यं, लोपकार्यम् अपि एकं कार्यमेव। इत्युक्ते शप् प्रत्ययस्य सम्पूर्णतया लोपः भवति अदादिगणे। तत्र अन्यविषयाः अपि सन्ति, इत्युक्ते शप् प्रत्ययस्य सम्पूर्णलोपः भवति चेत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्येकः नियमः अस्ति। प्रत्ययलोपः भवति चेदपि प्रत्ययलक्षणं तत्र तिष्ठति इति नियमः तु अस्ति एव, किन्तु तत्र अदादिगणे न लुमताङ्गस्य इति सूत्रेण तत्र गुणकार्यं न भवति। इत्युक्ते तत्र शपः लुक् भवति इति उक्तवती, लुक् इति कथनेन तत्र लु शब्देन यत्र यत्र लोपकार्यं भवति तत्र न लुमताङ्गस्य इति सूत्रेण गुणकार्यस्य प्रसक्तिः नास्ति, अङ्गकार्यं तत्र नास्ति अदादिगणे। टि इति कर्त्रार्थकसार्वधातुकप्रत्ययः, टिप्रत्ययः कर्त्रार्थकसार्वधातुकप्रत्ययः, तिप्रत्ययः कर्त्रार्थकसार्वधातुकप्रत्ययः, तिप्रत्ययः अस्ति इति कारणतः धातुतिङ्प्रत्ययोः मध्ये कर्तरि शप् इति सूत्रेण आदौ शप् आयाति, किन्तु जुहोत्यादिगणे शपः श्लु भवति। श्लु भवति इत्युक्ते श्लु इति अपि भिन्नप्रकारकः लोपः। अपि च जुहोत्यादिगणे अन्यानि कार्याणि अपि सन्ति, इत्युक्ते श्लु इति लोपः इति उक्तवती द्वित्वकार्यमपि भवति। तदर्थमेव दा धातुं स्वीकुर्मः चेत् ददाति इति रूपं सिद्ध्यति। चतुर्थः गणः दिवादिगणः अस्ति. दिवादिगणे ष्यन् इति विकरणप्रत्ययः अस्ति. अनुबन्धलोपानन्तरं या अवशिष्यते तत्र. पञ्चमः गणः स्वादिगणः. स्वादिगणे स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति विकरणप्रत्ययः आयाति. अनुबन्धलोपे सति नु अवशिष्यते. षष्ठः गणः तुदादिगणः. तुदादिगणे शा इति विकरणप्रत्ययः अस्ति. तत्र निरनुबन्धप्रत्ययः आ अस्ति. अपि च सप्तमः गणः रुधादिगणः. रुधादिभ्यः श्नम् इति सूत्रेण तत्र श्नम् इति विकरणप्रत्ययः शपं प्रबाध्य आयाति. रुधादिगणे श्नम् विकरणप्रत्ययस्य शकारमकारयोः अनुबन्धलोपानन्तरं न अवशिष्यते. सः न धातोः मध्ये आयाति. इत्युक्ते विकरणप्रत्ययः धातोः भागः भवति रुधादिगणे. रुधादिगणः सप्तमः गणः. तस्मिन् गणे विकरणप्रत्ययस्य अवशिष्टभागः धातोः भागः भवति इति रुधादिगणीयवैशिष्ट्यमस्ति. अष्टमः गणः अस्ति तनादिगणः. तनादिगणे तनादिकृण्भ्यः उः इति सूत्रेण उ इति विकरणप्रत्ययः आयाति. उ प्रत्ययः तिङ् नास्ति, षित् नास्ति. अतः यः प्रत्ययः तिङ् नास्ति, षित् नास्ति चेत् सः प्रत्ययः सार्वधातुकः नास्ति. सार्वधातुकः नास्ति चेत् आर्धधातुकः भवति. अत्र अशित्वात् सः प्रत्ययः आर्धधातुकप्रत्ययः भवति तनादिगणे उ इति विकरणप्रत्ययः. नवमः गणः अस्ति क्रियादिगणः. क्रियादिगणे क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययः अस्ति. श्ना विकरणप्रत्यये अनुबन्धलोपानन्तरं न अवशिष्यते. क्रियादिगणः इति कथनेन तत्र क्री आदयः इति अर्थः अस्ति. यदा पदम् उच्चारयामः तदा यण्सन्धिं कृत्वा वदामः क्री आदि क्रियादि इति. तत्र ईकारस्य स्थाने यकारः आगतः इति कृत्वा यण्सन्धिः भूत्वा क्रियादिगणः. दशमः गणः अस्ति चुरादिगणः. चुरादिगणे स्वार्धे णिच् विधीयते. आदौ सर्वेभ्यः धातुभ्यः अस्मिन् गणे आदौ णिच् प्रत्ययः विधीयते. तत्र णिच् प्रत्ययस्य विधानम् एकेन विशिष्टसूत्रेण भवति. सत्यापपाश रूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्योणिच्. चुरादिभ्योणिच् इति अन्ते आयाति. तेन सूत्रेण णिच् प्रत्ययः आदौ विधीयते चुरादिगणे. णिच् विधीयते चेत् तदा तत्र नूतनधातोः निर्माणं भवति. यदा नूतनधातोः निर्माणं भवति तदा पुनः तत्र अन्ते तिङ्प्रत्ययः अस्ति खलु. तत्र तिङ्प्रत्ययः कर्त्रर्धकसार्वधातुकप्रत्ययः. चोरयति इति कथनेन अन्ते ति अस्ति. सः ति प्रत्ययः तिप् इत्यस्य रूपम् अस्ति. मूलतिङ्प्रत्ययः तिप् अस्ति. तिप्रत्ययः सार्वधातुकप्रत्ययः. कर्त्रर्धकप्रत्ययः कर्त्रर्धकसार्वधातुकप्रत्ययः परः अस्ति इति कारणतः चुरादिगणे अपि धातुतिङ्प्रत्ययोः मध्ये शप् विकरणप्रत्ययः आयाति. इत्युक्ते तत्र चुरादिगणे शपं निमित्तीकृत्य कानिचन कार्याणि भवन्ति. तिप्रत्ययं निमित्तीकृत्य अन्यानि कार्याणि भवन्ति. आहत्य दश धातुगणाः सन्ति इति वयं सर्वे जानीमः एव. प्रथमे गणे भुवादिगणे शप् अस्ति इति कारणतः पित्वात् गुणकार्यं भवति. शपं निमित्तीकृत्य धात्वङ्गे गुणकार्यं भवति इति वयं ज्ञातवन्तः. चुरादिगणे अपि नूतनधातोः निर्माणानन्तरं चुर् धातुः मूलधातुः. चुर् धातुतः चोरि इति नूतनधातोः निर्माणम् अभवत्. तिङ्प्रत्ययस्य कारणेन मध्ये शपायति इति कृत्वा शपं निमित्तीकृत्य तत्र नूतनधातौ अङ्गकार्यं भवति. इत्युक्ते तत्र शप् अस्ति इति कारणतः शप् इत्यस्य पित्वा कारणात् चुरादिगणे अपि गुणः भवति. इत्युक्ते भुवादिगणे शप् अस्ति इति कारणतः गुणः भवति. चुरादिगणे अपि शप् अस्ति इति कारणतः गुणकार्यं भवति. इतोपि किं पठितम् अस्माभिः? तुदादिगणे श्याविकरणप्रत्ययः अस्ति. श्याविकरणप्रत्ययः शित्वात् सार्वधातुकसंज्ञकः एव, किन्तु अपित्वात् सः प्रत्ययः नित्वत् भवति. तत्र सार्वधातुकम् अपित् इति सूत्रेण सः शा प्रत्ययः तुदादिगणे नित्वत् भवति. नित्वत् भवति चेत् क्निति च इति सूत्रेण गुणनिषेधः भवति इति वयं पठितवन्तः तुदादिगणे इगन्तधातवः इगुपधधातवः सन्ति चेदपि अपित्वकारणात् णित्वत् भूत्वा गुणनिषेधः ख्निति च सूत्रेण भवति. एतावत्पर्यन्तम् एतेषां त्रयाणां गणानां प्रसङ्गे किञ्चित् अधीतवन्तः. इत्युक्ते तेषु गणेषु विकरणप्रत्ययः कः, तस्य विकरणप्रत्ययस्य स्वभावः कः, तत्र गुणकार्यं भवति वा, गुणकार्यं न भवति चेत् किमर्थं न भवति, एतत् पठितम् अस्माभिः. किन्तु अन्येषु गणेषु का गतिः, अन्येषु गणेषु किं कार्यं भवति, अन्येषु गणेषु गुणकार्यं भवति चेत् कदा भवति, गणविकरणप्रत्ययं निमित्तीकृत्य, पुनः वदामि, गणविकरणप्रत्ययं निमित्तीकृत्य केषु केषु गणेषु गुणकार्यं भवति इति विषयः एव अद्यतनविषयः. तिङ्प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति कुत्रचित्. उदाहरणार्थं क्रूधातुं स्वीकुर्मः चेत् क्रूधातुः तनादिगणे अस्ति, क्रूधातोः रूपं करोति अस्ति, क्रूधातुतः तनादिगणे तनादिकृण्भ्यः उः इति सूत्रेण उ इति विकरणप्रत्ययः आयाति. उ विकरणप्रत्ययः यथा मया उक्तं सार्वधातुकः नास्ति, तिङ् नास्ति, शित् नास्ति इति कृत्वा आर्धधातुकः, आर्धधातुकः अस्ति चेदपि तत्र क्रूधातुः इगन्तधातुः अस्ति, इगन्तधातुः अस्ति इति कारणतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण ऊ प्रत्ययं निमित्तीकृत्य तनादिगणे क्रूधातोः प्रसङ्गे गुणकार्यं भूत्वा क्रू कर् भवति, करयोगः ऊ करु भवति. तत्पश्चात् ति अस्ति, ति इति तिङ्प्रत्ययः, तिङ्प्रत्ययः अपि सार्वधातुकः एव. वयं किं पठितवन्तः, तिंशित् सार्वधातुकं, सर्वे तिङ्प्रत्ययाः सार्वधातुकाः, अपि च यस्मिन् प्रत्यये शकारः इति संज्ञकः अस्ति सः प्रत्ययः षित् प्रत्ययः अपि सार्वधातुकसंज्ञकः इति पठितवन्तः. क्रूधातोः प्रसङ्गे ति प्रत्ययः सार्वधातुकः अस्ति इति कारणतः, पुनः करु इत्यस्मिन् उकारः अस्ति अन्ते, तत्र इगन्तमङ्गमस्ति इति कृत्वा तिङ्प्रत्ययं निमित्तीकृत्य करु करो भवति. पश्चात् वर्णमेलनेन करोति इति रूपं सिद्ध्यति. अद्यतनविषयः तु गणविकरणप्रत्ययं निमित्तीकृत्य केषु केषु गणेषु गुणः भवति, स एव प्रकृतविषयः.
एकः संशयः, द्वितीयगणे अदादिगणे लुक् इति आगच्छति, शपः लुक् इति, तद् आदेशः वा, लुक् इति आदेशः, युहोत्यादिगणे श्लू इति अस्ति तद् आदेशः वा, शपः स्थाने लुक् वा?
शपं प्रबाध्य इति वदामः, इत्युक्ते कर्तृशप् इति सूत्रम् औत्सर्गिकसूत्रम् इत्युक्ते सामान्यसूत्रं, किन्तु अदिप्रभृतिभ्यः शपः इति सूत्रम् अपवादसूत्रम्.
लुक् श्लुः श्लू तस्य फलं तु लोपः एव, किन्तु किमर्थम् एकत्र लुक् इति अस्ति एकत्र श्लू इति अस्ति?
तदेव तस्य गणस्य वैशिष्ट्यं.
केवलं गणः भिन्नः इति वक्तुं वा, अन्य विशिष्टं कार्यमस्ति वा, भवती द्वित्वमागच्छति, श्लू अस्ति तत्र द्वित्वमागच्छति इति उक्तवती, तद् द्वित्वप्रदर्शनार्थं श्लू इति अस्ति वा?
श्लौ इति सूत्रेण द्वित्वकार्यं भवति. लुक् इति एकप्रकारकः लोपः, श्लू इति अन्यप्रकारकः लोपः, तत्र एका संज्ञा एव प्रत्ययस्य लुक् श्लू लुपः इति सूत्रेण, तत्र एते भिन्नभिन्नप्रकारकः लोपाः. लुक् इति विधानेन लोपकार्यं भवति चेत् तत्र विशिष्टं कार्यं भवति, श्लू इति लोपकार्यं भवति चेत् भिन्नकार्याणि भवन्ति.
सामान्यं समासे अपि अनुपसमासः इति वदामः, तत्रापि लोपः इत्येव अर्थः किल?
तत्र युधिष्ठिरः इत्यस्मिन् पदे अलुक् समासः अस्ति. युधि इति सप्तम्यन्तं रूपम् अस्ति. अदादिगणस्य प्रसङ्गे इतोपि यदा वयं पठामः तदा इतोपि स्पष्टतया अवगन्तुं शक्नुमः. करपत्रेषु इतोपि स्पष्टतया लिखितमस्ति, पीठिकारूपेण किञ्चित् उक्तवती. अद्यतनविषयः तु गणविकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं केषु गणेषु भवति. एतावत्पर्यन्तं त्रयाणां गणानां प्रसङ्गे एव गुणचिन्तनम् अथवा गणविकरणप्रत्ययस्य स्वभावचिन्तनं कृतवन्तः. अद्य वयम् अन्येषु गणेषु किं भवति तदर्थम् इदानीं करपत्रं पश्यन्तु. गोमती भगिनी, भवती आरम्भं करोतु.
एतावता अस्माभिः दृष्टं यत् स्वादिगणे चुरादिगणे च गुणकार्यं सम्भवति यथा सङ्गम्, तुदादिगणे गुणः न अर्हः इत्यपि दृष्टम्. अपरेषु गणेषु का व्यतिः? तेषु गुणः अर्हः चेत् किमर्थम्? न अर्हः चेत् किमर्थम् इत्यपि प्रश्नः उदेति. तत्र स्थितिः कीदृशी इति अवलोकयाम. नाम आहत्य सर्वदशगणान् मनसि निधाय किं वक्तुं शक्येत इति प्रश्नः. अस्माभिः पठितं दशगणाः सन्ति, विकरणप्रत्ययाः के, अनन्तरं क्रिया लट्लकाररूपं कथा कद् भवति इत्यपि स्वल्पचिन्तनम् अभवत्. अनन्तरं गुणकार्यम् एकं प्रधानकार्यमस्ति प्रक्रियाविषये. गुणकार्यस्य कारणं कारणसूत्रं कानि इति अपि अस्माभिः दृष्टम्. अस्माभिः दृष्टं भ्वादिगणे चुरादिगणे गुणकार्यं सम्भवति. तत्र शप् प्रत्ययः आयाति, अतः गुणकार्यं भवति इति सूत्रसहितं अस्माभिः दृष्टम्. अनन्तरं तुदादिगणविषये अपि अस्माभिः चिन्तनम् अभवत्. तुदादिगणे श इति प्रत्ययः अस्ति, तत्र गुणकार्य न भवति, गुणनिषेधः भवति. तद् किमर्थं भवति? तदपि सूत्र अनुसारम् अस्माभिः दृष्टम्. चुरादिगण गणः क्वादिगणः तुदादिगणः त्रीणि गणाः अस्माभिः दृष्टं, नाट् वेरि डीप्लि, बट्
अत्र त्रयाणां गणानां प्रसङ्गे उक्तमस्ति. किञ्चित् अस्माकं पुनस्मरणार्थम् एव एकमेकम् उदाहरणं स्वीकृत्य, भुवादिगणस्य उदाहरणं, चुरादिगणस्य उदाहरणं, तुदादिगणस्य उदाहरणं स्वीकृत्य विवृणोतु कृपया.
भुवादिगणे भू धातु इति स्वीकुर्मः. भू इति इगन्तधातुः अस्ति, लट्लकाररूपं भवति, भवति इति, तदा भू योगः ति इति प्रथमं भवति, अनन्तरं विकरणप्रत्ययः भवति. तद् शप् अस्ति, शप् सार्वधातुकप्रत्ययः अस्ति, तिञ्चित् सार्वधातुकम् इति सूत्रेण शप् सार्वधातुकमस्ति, ति अपि सार्वधातुकमस्ति. भू अनन्तरं शप् शप् इत् संज्ञकलोपानन्तरम् अवशिष्टः भवति अ अकारः, तो भूयोगः अकारः. शप् अस्ति, तद् षित् अस्ति, सार्वधातुक अर्धधातुकयोः इति सूत्रेण भू तत्र उकारस्य गुणः भूत्वा भो इति भवति, भो योगः अ इति तिष्ठति. तत्र सन्धिकार्यं भवति, भो योगः अ भवति भव इति. अनन्तरं भव भवयोग आयोगः ति, भवयोगः ति, तत्र वर्णमेलनं भूत्वा भवति इति रूपं भवति. शप् निमित्रीकृत्य सार्वधातुक अर्धधातुकयोः इति सूत्रेण तत्र गुणकार्यं भवति. अनन्तरं चुरादिगणः, चुरादिगणे अपि स्वार्थे लिच् भवति प्रथमं, तत्र आतिदेशिकधातुः भवति, अनन्तरं ति प्रत्ययः आयाति, तु विकरणप्रत्ययः कर्तृ शप् इति सूत्रेण शप् एव आयाति. शप् अस्ति, अतः गुणकार्य गुणकार्यं भवति, शकारः गुणशक्तिप्रदायिनी, अनन्तरं पकारः गुणप्रचोदन करोति, अतः शप् यत्र अस्ति तत्र गुणकार्यं भवति. तु चुरादिगणे अपि चुरि इति आदिदेशिकधातोः प्रक्रियानन्तरं चोरयति इति भवति. प्रक्रिया अपि वदामि भगिनि?
समयाभावात्
गुणकार्यं गुणकार्यं चोरि इति दङ्गम् अस्ति, तथापि तत्रापि गुणकार्यं भवति. अनन्तरं तुदादिगणः, तुदादिगणे अभिकरणप्रत्ययः अस्ति श, श सार्वधातुकप्रत्ययः अस्ति. सार्वधातुकप्रत्ययः अनन्तरं तत् अप्यत् अस्ति. अप्यत् इत्युक्ते पकारः इत् सज्ञक अपकारः नास्ति अत्र, केवलं षकारः एव अस्ति. तत्र गुणकार्यं गुणकार्यस्य प्राप्तिः अस्ति षकारस्य कारणेन, परन्तु अप्यत् अनेन कारणेन तस्य निषेधः भवति. अतः तुदादिगणे वयं लिख् इति धातुः स्वीकुर्मः चेत् तत्र पुगन्धलघूपधस्य च इति सूत्रेण गुणकार्यं भवितुम् अर्हति. किमर्थं चेत् लिख् स्थितो धातोः उपधायाम् इकारः अस्ति, इकारस्य गुणः भवितुम् अर्हति, परन्तु अपि इत्यनेन गुणस्य निषेधः भवति. ततः लिख एव अस्ति, लिख योग अ शकारस्य अ अनन्तरं ति वर्णमेलनेन लिखति इति एव रूपं भवति. थादि चुरादि तुदादिगणे गुणकार्यः भवति एव, परन्तु अपरेषु सप्त गणाः सन्ति, तेषु गणाः गुणः भवति वा न भवति इति वयं पश्यामः. गुणं भवति चेत् किमर्थं, गुणं न भवति चेत् किमर्थमिति पश्यामः.
उत्तमरीत्या उक्तवती. अत्र यथा सङ्गम् इति पदमस्ति खलु, अहं चिन्तयामि अव्ययीभावसमासः अस्ति इति मम चिन्तनं. यथा सङ्गम् इति समस्तपदमस्ति, तत्र मनसि इति सप्तम्यन्तं पदं, निधाय निधाय इति ल्यबन्तं पदं, नि उपसर्गपूर्वकः, धा धातोः रूपमेव, ल्यप् प्रत्ययस्य योजनेन तत्र ल्यप् इत्यस्मिन् य अवशिष्यते इति कृत्वा निधाय इति. जुहोत्यादिगणे अस्ति अयं धातुः, दधाति इति रूपम् अस्ति, दुधौ इति औपदेशिकरूपमस्ति, धारणपोषणयोः इत्यस्मिन् अर्थे धा धातोः रूपम् एव निधाय. किन्तु अत्र पश्यन्तु शक्येत इति रूपम् अस्ति, भवन्तः दृष्टवन्तः वा? शक्येत इति पदं कीदृशं पदम् इति चिन्तयामश्चेत्, तत्र शक् धातुः गणद्वये अस्ति, स्वादिगणे अस्ति. स्वादिगणे अस्ति चेत् तस्य रूपं स्वादिभ्यः श्नुः अस्ति खलु, तदर्थं शक्नोति इति रूपम् अस्ति. शक् धातोः रूपं स्वादिगणे शक्नोति, किन्तु दिवादिगणे अपि अस्ति, दिवादिगणे तस्य रूपं शक्यते. तत्र उभयपदी धातुः अस्ति, शक्यति शक्यते. शक्यते इति आत्मनेपदीरूपं यदस्ति तस्य विधिलिङ्गलकाररूपम् अत्र लिखितमस्ति. इत्युक्ते शक् धातोः विधिलिङ्गलकाररूपं दिवादिगणीयशक् धातोः रूपम् एव अत्र लिखितमस्ति. शक्येत इति विधिलिङ्गलकाररूपम् अस्ति. अग्रे गच्छामः. इदानीं सुन्दरकल्याण महोदय, भवान् वदतु.
भगिनि, तिंशित् सार्वधातुकम् इति अस्ति सूत्रं, सार्वधातुकत्वं तिङ् अस्ति चेत् पर्याप्तं किल? विकरणप्रत्ययः षित् अस्ति, अनन्तरं तिङ् अस्ति, किमपि एकमस्ति चेदपि सार्वधातुकत्वं सम्भवति किल?
सम्भवति.
अतः तद् विकरणप्रत्ययम् अविगणय्य तिङ् स्वीकर्तुं शक्नुमः वा? विकरणप्रत्ययः ऊ इति अस्ति, सार्वधातुकत्वं नास्ति, किन्तु अग्रे तिङ् योजयामः इति कारणेन सार्वधातुकं सार्वधातुकत्वं सम्भवति किल?
चिन्तनं कथं भवेत् इत्युक्ते, आदौ धातुं स्वीकुर्मः, धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः आयाति. इत्युक्ते अस्माकं विवक्षानुगुणं सर्वदा तिङ् प्रत्ययेषु टिप् वा तस् वा झि वा कोऽपि प्रत्ययः आदौ धातोः परम् आयाति. इत्युक्ते सार्वधातुकप्रक्रियायां सः सार्वधातुक तिङ् प्रत्ययः धातुना साक्षात् दृश्यते. इत्युक्ते धातोः परं साक्षात् कर्त्रार्थकसार्वधातुकप्रत्ययः यदा आयाति तदानीम् एव कर्तरि शप् इति सूत्रेण धातु तिङ् प्रत्ययोः मध्ये शप् आयाति इति तत्र चिन्तनमस्ति.
तर्हि सर्वे धातवः सार्वधातुकत्वं प्राप्नुवन्ति किल?
इत्युक्ते
तिङ् एव योजयामः किल?
सर्वत्र तिङ् एव योजयामः, किन्तु तत्र तिङ् प्रत्ययेषु आदौ वयं सार्वधातुकप्रक्रियायाः प्रसङ्गे चिन्तनं कुर्मः. इत्युक्ते यद्यपि तत्र दश लकाराः सन्ति, तेषु केवलं चत्वारः लकाराः एव सार्वधातुकाः. तेषु लकारेषु एव टिङ् प्रत्ययः धातुना साक्षात् दृश्यते. अन्येषु लकारेषु लृट् लकारं स्वीकुर्मः चेत् तत्र धातुना टिङ् प्रत्ययः साक्षात् न दृश्यते. मध्ये श्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. इत्युक्ते लृट् लकारेषु आर्धधातुकप्रक्रिया भिन्ना अस्ति. तत्र सार्वधातुकप्रक्रियायां धातुना टिङ्प्रत्ययः साक्षात् दृश्यते इति कारणतः, अन्ते कर्त्रर्थकसार्वधातुकप्रत्ययः अस्ति इति कारणतः मध्ये शप् आयाति औत्सर्गिकरूपेण. किन्तु भिन्नगणेषु शपं प्रभात्य अन्ये विकरणाः आयान्ति इति. अन्ये किं चिन्तयन्ति अस्मिन् प्रसङ्गे? अस्माकं विवक्षानुगुणम् आदौ तिङ्प्रत्ययं योजयामः धातुं स्वीकृत्य. अस्माकं विवक्षा का? प्रथमपुरुष एकवचनरूपं साधयितुम् इच्छामः. टिप् योजयामश्चेत् टिप् इति तिङ्प्रत्ययः अस्ति इति कारणतः सः प्रत्ययः सार्वधातुकः एव. तादृश कर्त्रर्थक सार्वधातुकप्रत्ययः धातोः परम् आयाति चेत् तदानीम् एव कर्तरि शप् सूत्रेण मध्ये शप् आयाति इति तत्र स्मर्तव्यः अंशः. सुन्दरकल्याण महोदय, भवान् पठतु.
प्रथमतया गुणः सम्भवति न वा इत्यनेन धातौ गुणः सम्भवति न वा इत्यत्र आशयः. तिङन्तपदे भागत्रयं वर्तते, धातुः, विकरणप्रत्ययः, तिङ्प्रत्ययः च. केषुचित् गणेषु विकरणप्रत्यये अपि गुणः सम्भवति, शक्नोति इति. इदम् अग्रे अपरस्मिन् पाठे परिशीलयामः. अधुना केवलं धात्वङ्गे गुणः कुत्र कुत्र सम्भवति इति प्रश्नः. अत्र गुणः धातोः अङ्गे एव सम्भवति इति आशय इति लिखितमस्ति. तिङ्गकृते त्रिभागं भागत्रयम् अस्ति, विकरण धातुः, विकरणप्रत्ययः, तिङ्प्रत्ययः इति. केषु कुत्रापि गणेषु केषुचित् गणेषु गुणः धात्वङ्गे एव भवति, केषुचित् गणेषु विकरणप्रत्ययस्य अङ्गेषु अपि गुणः भवितुम् अर्हति. इदम् अग्रे अपरस्मिन् पाठे परिशीलयामः इति लिखितमस्ति.
महोदय, अत्र तिङन्तपदे भागत्रयं वर्तते इति लिखितमस्ति, तस्मिन् विषये एकम् उदाहरणं स्वीकृत्य विवृणोतु.
तत्र भागत्रयं वर्तते, तिङन्तपदे भागत्रयं वर्तते. ओके, इति कृणोति कृधातोः स्वादि कृधातु स्वादिगणे अस्ति.
कृधातुः तनादिगणे अस्ति. तनादिगणेभ्यः उः इति सूत्रेण तत्र उ इति विकरणप्रत्ययः आयाति. वदतु. पठ् धातुं स्वीकृत्य वदतु.
पठ्धातु स्वीकृत्य पठ्धातु
भुवादिगणे
भुवादिगणे अस्ति. पठ्धातु भुवादिगणे अस्ति. पट् अत्र पट् कर्तरि शप् इति सूत्रेण शप् विकरणप्रत्ययः आयाति. पट् योगे तिङ्गन्तप्रत्यय शप् योगे तिप् पठति इति भवति. अत्र भागत्रयम् एतद् वर्तते, धातुः पठ्, विकरणप्रत्ययः शप्, तिङ्गन्तप्रत्ययः तिप् इति त्रीणि भागत्रयम् अस्ति इति लिखितमस्ति.
उत्तमम्. अत्र एकः विषयः अस्ति खलु, केषुचित् गणेषु विकरणप्रत्यये अपि गुणः सम्भवति इति उक्त्वा आवरणे शक्नो इति अङ्गं स्वीकृत्य शक्नोति इति रूपं साधितं. भवान् वक्तुं शक्नोति वा?
शक्नोति इति शक्नु इति धातुः अस्ति
महोदय. अहं वदामि, भवान् शृणोतु. औपदेशिकधातुः शक्लु धातुः स्वादिगणे अस्ति. अहं पूर्वम् उक्तवती शक्धातुः गणद्वये अस्ति. स्वादिगणे एकः धातुः अस्ति, दिवादिगणे अन्यः धातुः अस्ति. किन्तु अत्र यद्रूपं लिखितम् अस्ति तत् रूपं स्वादिगणीयधातोः
रूपं.
वदतु.
श्नुम् श्नुम् इति विकरणप्रत्ययः अस्ति. शकार मकारयोः लोपः भूत्वा इत्संज्ञा भूत्वा लोपः भवति. अनुबद्धलोपः भवति. अवशिष्यते णु एव अवशिष्यते. शक् शक् योगे णु णु एव अवशिष्यते. शक् योगे णु णु विकरणप्रत्ययः. विकरणप्रत्ययस्य अवशिष्टं भागं तिप् प्रत्ययः. शक् योगे णु णु योगे शक्नु शक्नु योगे तिप् प्रत्ययः. तिप् तिङ्गतप्रत्ययः इति कारणेन तस्य पित् पित् अस्ति इति गुणः भवति. प्रत्ययः अपि च सार्वधातुकप्रत्ययः. अत्र शक्नु शक्नु इति अङ्गं भवति. तत् कारणेन गुणः भवितुम् ये तिप् तिप् तिङ्गन्तप्रत्यय तिप् अस्ति इति कारणेन तत्र गुणस्य गुणस्य प्रसक्तिः अस्ति. एवं प्राप्तिः अपि अस्ति गुणकार्यस्य. तत् कारणेन शक्नु 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 योगे तिप् शक्नु गुणकार्यस्य गुणकार्यस्य भवति चेत् शक्नो इति भवति. शक्नो योगे पि शक्नोति इति रूपम्.
उत्तमं महोदय, साधितवान्. तदेव यथा महोदयेन उक्तमस्ति तत् संक्षिप्तरूपेण शीघ्रं वदामि. अयं धातुः स्वादिगणे अस्ति. स्वादिगणः पञ्चमः गणः. तत्र शक्लु इति औपदेशिकधातुः, शक् धातुः शक्तौ इत्यस्मिन् अर्थे अस्ति. तत्र लुकारस्य उपदेशजनुनासिकीति इत्यनेन इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन अपगच्छति. शक् इति लौकिकधातुः अस्ति. स्वादिगणे स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति विकरणप्रत्ययः अस्ति. श्नु इत्यस्मात् अनुबन्धलोपे सति नु अवशिष्यते. शक् योगः नु इति अस्ति. तत्र श्नु इति प्रत्ययः षित् अस्ति. सार्वधातुकप्रत्ययः एव षित्वात्, किन्तु अपित् अस्ति. तत्र पित्वं नास्ति इति कारणतः गुणकार्यं न भवति. अपि च अत्र धातुः अपि इगन्तधातुः नास्ति, इगुपधधातुः नास्ति. शक् इति कथनेन तत्र अन्ते इक्वर्णः नास्ति, उपधायाम् इक्वर्णः अपि नास्ति इति कृत्वा तत्र गुणकार्यस्य प्रसक्तिः एव नास्ति. श्नु प्रत्ययं निमित्तीकृत्य तत्र गुणकार्यस्य प्रसक्तिः एव नास्ति. किन्तु आदौ धातौ कीदृशं कार्यं भवति? शक् योगः नु केवलं वर्णमेलनेन शक्नु इति अङ्गं सिद्ध्यति. शक्नु इति अङ्गं तिप्रत्ययं निमित्तीकृत्य अङ्गं भवति. तत्र तिप्रत्ययः इङ्प्रत्ययः तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकः इति कृत्वा शक्नु तत्र उकारान्तम् अङ्गमस्ति, इगन्तम् अङ्गमस्ति शक्नु इति. इति कृत्वा उकारस्य गुणः भूत्वा ओकारः भवति. सार्वधातुकार्धधातुकयोः इति सूत्रेण तत्र अङ्गकार्यं भवति. तिप्रत्ययं निमित्तीकृत्य अथवा तिङ्प्रत्ययं निमित्तीकृत्य तत्र अङ्गकार्यं भवति. तदर्थमेव शक्नोति इति रूपं सिद्ध्यति. किन्तु अयमेव धातुः दिवादिगणे अस्ति चेत् शक्यते इति भवति. तत्र शन् अयाति खलु, तदर्थं. साधु महोदय, द्वितीयबिन्दुः अस्ति. शुभदा भगिनी भवती करोतु.
सूत्रद्वयेन एव गुणः सिद्धः इति पूर्वमेव ज्ञातम् अस्माभिः. सार्वधातुक अर्धधातुकयोः पुगन्तलघुपदस्य च इति अनुवृत्तिसहितसूत्रे द्वयोः अपि सार्वधातुकार्धधातुकयोः इति पदम् आगच्छति. द्वितीय बिन्दुः सूत्रद्वयेन एव गुणः इति द्वे सूत्रे स्तः. सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च द्वयोः सूत्रयोः अपि सार्वधातुकार्धधातुकयोः इति पदं द्वयोः सूत्रयोः मध्ये आगच्छति. सम्पूर्णं सूत्रम् अवगच्छामः चेत् सार्वधातुकार्धधातुकयोः इत्यनेन इगन्त अङ्गस्य गुणः भवति, अपि च सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य च इत्यनेन लघु इगन्त अङ्गमस्ति, तस्य धातोः अङ्गमस्ति चेत् तस्य गुणः भवति इति एते द्वे सूत्रे वदतः.
उत्तमम्. अस्मिन् वाक्ये किं लिखितमस्ति इत्युक्ते सार्वधातुकार्धधातुकयोः इति पदम् अनुवृत्तिरूपेण सूत्रद्वये अपि अस्ति, इत्युक्ते पुगन्तलघुपथस्य च इत्यस्मिन् सूत्रे अपि सार्वधातुकार्धधातुकयोः इति पदम् अनुवृत्तिरूपेण आयाति इति स्मर्तव्यः अंशः. अग्रे पठतु.
सार्वधातुकार्धधातुकयोः सप्तमे अध्याये तृतीये पादे चतुराशीतिः तमं सूत्रम् इति सूत्रस्य तात्पर्यं सार्वधातुकार्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात्, अपि च पुगन्तलघुपदस्य च सप्तमे अध्याये तृतीये पादे षट् अशीतितमं सूत्रम् इति सूत्रस्य तात्पर्यं सार्वधातुकार्धधातुकयोः परयोः पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः स्यात्. प्रथमं सूत्रमस्ति तेन सूत्रेण सार्वधातुकार्धधातुकयोः परयोः इगन्तस्य अङ्गस्य इकः गुणः स्यात्. यः धातुः अस्ति यस्य अङ्गः इगन्त अङ्गः अस्ति, यस्य अन्ते इक् वर्णः अस्ति, तस्य परे यदि सार्वधातुक वा आर्धधातुक वा प्रत्ययः अस्ति चेत् तस्य इगन्तस्य अङ्गस्य गुणः भवति इति प्रथमं सूत्रं वदति. द्वितीये सूत्रे पुगन्तलघुपदस्य च इति सूत्रेण सार्वधातुक यः धातुः अस्ति तस्य हलन्तधातुः अस्ति, तस्य उपधायां यत् लघु इक् अस्ति तस्य लघु तस्य इकः गुणः भवति यदि तस्य परे सार्वधातुक अथवा आर्धधातुक प्रत्ययः अस्ति चेत् इति द्वितीयसूत्रं वदति.
उत्तमं. द्वयोः अनुवृत्त्योः मध्ये भेदः अस्ति. सार्वधातुकार्धधातुकयोः सूत्रस्य अनुवृत्तिः भिन्ना अस्ति, पुगन्तलघुपदस्य च सूत्रस्य अनुवृत्तिः भिन्ना अस्ति. पश्यन्तु, इगन्तस्य अङ्गस्य इकः गुणः इति लिखितमस्ति, किन्तु पुगन्तलघुपदस्य च इत्यस्मिन् सूत्रे लघुपदस्य अङ्गस्य इकः गुणः इत्युक्ते पुगन्तलघुपदस्य च इत्यस्मिन् सूत्रे परिभाषासूत्राणाम् आवश्यकता नास्ति, किन्तु सार्वधातुकार्धधातुकयोः तत्र परिभाषासूत्राणि सन्ति. इत्युक्ते तत्र अनुवृत्त्योः मध्ये भेदः अस्ति, पार्थक्यमस्ति इति ज्ञातव्यः अंशः. भगिनी, एकवारं नी इति धातुः अस्ति, नी धातुः ईगन्तधातुः, नी धातुतः सार्वधातुकार्धधातुकयोः इति सूत्रम् उपयुज्य नयति इति रूपं साधयतु.
आं भगिनि, नि इति धातुः अस्ति, तस्य नि इति इगन्त अङ्गम् अस्ति धातोः, तर्हि नियोगः नि इति नि भ्वादिगणीयधातुः अस्ति, तत्र नियोगः तिप् अस्ति प्रथमतः, कर्तरि शप् इत्यनेन तस्य मध्ये विकरणप्रत्ययः आयाति. भ्वादिगणस्य विकरणप्रत्ययः शप् इति अस्ति, अतः नियोगः शप् योगः ति इति आयाति. तदनन्तरं नि इति इत्यस्य इगन्त अङ्गस्य शप् इति पित् प्रत्ययः अस्ति इत्यनेन नि इत्यस्य इगन्त अङ्गस्य गुणः भवति, अतः ने इति भवति. सो ने योगः शप् इत्यस्य अ इति अवशिष्टं विकरणप्रत्ययः, अतः ने योगः अ योगः ति इति भवति. तदनन्तरं ने योगः अ इत्यस्य एचोयवायावः इत्यनेन नय इति भवति, अपि च नय योगः अ योगः ति इति भवति. नय योगः अ वर्णमेलनेन नय इति भवति, नय योगः ति इति भवति, अतः अन्तिमरूपं तु नयति इति भवति. अतः अत्र प्रथमं सूत्रं सार्वधातुकार्धधातुकयोः कार्यं करोति. सार्वधातुकार्धधातुकयोः परयोः इगन्त अङ्गस्य इकः गुणः स्यात्. अत्र नि इत्यस्य इति धातोः अपि नि इति इगन्त अङ्गम् अस्ति. तत्पश्चात् सार्वधातुकप्रत्ययः अस्ति शप् इति. तस्मात् कारणात् शप् इति विकरणात् कारणात् नि इत्यस्य ने इति गुणः भवति इति अत्र वयं द्रष्टव्यम्.
साधु भगिनी साधितवती. बुद्ध इति धातुः अस्ति, उदुपदधातुः. बुद्ध धातुतः बोधति वदतु किञ्चित्.
बुद्धयोगः भुवादिगणे शप् इति प्रत्ययः, अविकरणप्रत्ययः. बुद्धयोगः शप् योगः ति. अत्र बुद्ध इति उदुपदधातुः अस्ति, किमर्थं चेत् तस्य उपधायां लघु उ इति अस्ति, तत्तु लघु इक् अस्ति. अतः पुगन्तलघुपदस्य च इत्यनेन शप् इति प्रत्ययस्य कारणात् बुध् इत्यस्य बोध इति गुणः भवति. अपि च बोधयोगः अयोगः ति. बोधयोगः अयोगः ति. बोधयोगः ति अन्तिमं रूपं बोधति इति भवति. अत्र द्वितीयं सूत्रं यत् अस्ति पुगन्तलघुपदस्य च, यत्र लघु उपधायाः इक् वर्णस्य गुणः भवति, अत्र तादृशमेव भवति. बुद्धयोगः बोध भवति, बोधति इति अन्तिमरूपम्.
साधु भगिनी उत्तमरीत्या उक्तवती. दर्शना भगिनी एकवारम् अग्रिमपरिच्छेदं पठतु. अत्र तात्पर्यम् इति पदमस्ति खलु. तात्पर्यम् इत्युक्ते तत्परस्य भावः. तात्पर्यं तद्धितप्रत्ययान्तशब्दः. शञ् इति एकः प्रत्ययः अस्ति. मधुरस्य भावः माधुर्यम् इव तत्परस्य भावः तात्पर्यम् इति नूतनं पदं खलु. भगिनी वदतु.
तर्हि द्वयोः सूत्रयोः सार्वधातुक आर्धधातुकयोः इति पदं भवति. नाम अङ्गम् इगन्तं चेदपि अङ्गस्य उपधायां ह्रस्व इक् वर्णः चेदपि गुणः तदा सम्भवति यदा सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः वा परे अस्ति. अतः सार्वधातुकसंज्ञा आर्धधातुकसंज्ञा इति संज्ञाद्वयं सम्यक्तया अवगन्तव्यम्. इदं संज्ञाद्वयं सम्प्रति पश्याम. तर्हि द्वयोः सूत्रयोः उपरि दृष्टवन्तः. द्वे सूत्राणि सूत्रे दृष्टवन्तः. तत्र द्वयोः सूत्रयोः सार्वधातुक आर्धधातुकयोः अपि च उगन्तलघुपदस्य च तत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् तत्र द्वौ अपि सूत्रौ तत्र सार्वधातुक आर्धधातुकयोः इति पदम् अस्ति. तर्हि तत्र अङ्गम् इगन्तं चेदपि अङ्गम् इत्युक्ते तत्र प्रत्ययस्य पूर्वं यत् वर्णः अस्ति, वर्णः नैव,
तत्र इगन्तम् अङ्गम् अस्ति इत्युक्ते धातोः अन्ते इक् प्रत्याहारस्थवर्णः अस्ति. अत्र निमित्तं किम्? अत्र सार्वधातुक अर्धधातुकयोः इति पदमस्ति. तत् पदं सप्तमीविभक्तिद्विवचनम् अस्ति. सप्तमीविभक्तिद्विवचनम् इत्युक्ते सूत्रेषु सप्तम्यन्तं पदमस्ति चेत् तत्र परनिमित्तं पूर्वकार्यम् इति अर्थः अस्ति. इति कृत्वा सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः निमित्तमस्ति चेदेव इगन्ताङ्गेषु गुणकार्यं भवति. अत्र निमित्तं सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः. भुआदिगणस्य प्रसङ्गे शप् इति सार्वधातुकप्रत्ययः. तनादिगणस्य प्रसङ्गे तत्र उ इति प्रत्ययः अस्ति, सः प्रत्ययः आर्धधातुकप्रत्ययः. तत्र करोति इत्यस्मिन् प्रसङ्गे ऊप्रत्ययः आर्धधातुकः अस्ति इति कारणतः गुणः भवति. किन्तु पठति इत्यस्मिन् प्रसङ्गे पठ् धातोः परं शप् इति सार्वधातुकप्रत्ययः अस्ति इति कारणतः गुणः भवति. इति कृत्वा अत्र निमित्तं किम् इति पश्यामश्चेत् सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः परः अस्ति चेदेव गुणः. सार्वधातुकम् इति एका संज्ञा, आर्धधातुकम् इति अपि संज्ञा एव. तत् संज्ञाद्वयम् अस्माभिः पठितमेव. पुनः पठतु.
सार्वधातुकसंज्ञा का इति पूर्वमेव दृष्टं. तिंशित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः तिङ् वा शिप् वा अस्ति तस्य प्रत्ययस्य सार्वधातुकसंज्ञा भवति. भवति, भवतः, भवन्ति इत्यादिषु रूपेषु ति तः अन्ति इति तिङ् प्रत्ययः. यस्मिन् प्रत्यये शकारः इति संज्ञकवर्णः अस्ति सः शित्. तर्हि इदानीं भवती एव प्रतिपादितवती सार्वधातुकसंज्ञा पूर्वं दृष्टमिति. तिंशित् सार्वधातुकमिति सूत्रेण यः प्रत्ययः तिङ् भाषित् यत्र यत्र ष अथवा ति प्रत्यय अस्ति तत् षित् अस्ति. नैव, तथा नैव. ष यत्र इत् संज्ञा भवति तत् षित् अस्ति. किल आं किल
आम् पश्यतु, गणवीकरणप्रत्ययाः शितः सन्ति. भवती जानाति एव गणवीकरणप्रत्ययेषु के के प्रत्ययाः शितः सन्ति.
तत्र दिवादिगणः, भ्वादिगणः, दिवादिगणः, स्वादिगणः, तुदादिगणः, रुदादिगणः, क्लादि, चुरादि.
उत्तमम्. एकः विकरणप्रत्ययः एव सार्वधातुकः नास्ति, तत्र शित्वं नास्ति. उ इत्यस्मिन् प्रत्यये एव शित्वं नास्ति, तदर्थं सः प्रत्ययः सार्वधातुकः नास्ति. सार्वधातुकः नास्ति चेत् किं भवति इत्युक्ते आर्धधातुकप्रत्ययः भवति. तदेव अग्रिमे परिच्छेदे लिखितमस्ति. अदादिगणे, जुहोत्यादिगणे शप् आयाति किन्तु लोपः भवति. अपि च चुरादिगणे अपि शप् एव आयाति. इत्युक्ते विकरणप्रत्ययेषु ऊप्रत्ययं त्यक्त्वा अन्येषु प्रत्ययेषु शित्वम् अस्ति, किन्तु पित्वं सर्वेषु प्रत्ययेषु नास्ति. केवलं शप् इत्यस्मिन् एव पित्वम् अस्ति. अपि च तिङ्प्रत्ययाः अपि सार्वधातुकाः एव. तदवगन्तुमेव तत्र ति तः अन्ति इति प्रत्ययाः दत्ताः. किञ्चित् वदतु.
तत्र टिप् टिप् इति प्रत्ययः अस्ति. प अस्ति इत्युक्ते तत् तिंशित् सार्वधातुकं संज्ञा भवति. अस्ति
अस्मिन् वाक्ये भवती, भवतः, भवन्ति इति रूपाणि दत्तानि. किन्तु तानि रूपाणि कथं साधितानि इत्युक्ते आदौ अङ्गं निर्मामः, तत्पश्चात् सिद्धतिङ्प्रत्ययं योजयामः. तत्र सिद्धतिङ्प्रत्ययाः के इत्युक्ते अत्र यानि यानि पदानि दत्तानि तीतः अन्ति, तीतः अन्ति, एते सिद्धतिङ्प्रत्ययाः. इत्युक्ते तिप् इति मूलप्रत्ययः अस्ति. तिप् इत्यस्मात् पकारस्य इति संज्ञा भूत्वा ति अवशिष्यते. सः ति प्रत्ययः सिद्धतिङ्प्रत्ययः. तः, तः प्रसङ्गे वदतु.
तः तत्र नास्ति, अपित् अपित् अस्ति.
उत्तमम्. इत्युक्ते
तावदेव
तितः अन्ति इति त्रयः प्रत्ययाः सिद्धतिङ्प्रत्ययाः. तः इत्यस्मिन् किं भवति इत्युक्ते मूलप्रत्ययः तस् अस्ति, किन्तु तत्र सकारलोपः न भवति. वयं पूर्वं पठितवन्तः नाविभक्तौ तु स्माः इति सूत्रेण अत्र तस् इत्यस्मिन् सकारस्य लोपः न भवति. यद्यपि सकारः हल्वर्णः हलन्त्यं सूत्रं बाधित्वा नाविभक्तौ तु स्माः इति सूत्रेण सकारलोपः न भवति. तिङ् प्रत्ययाः अपि विभक्तिश्च इति सूत्रेण विभक्तसंज्ञकाः भवन्ति. न केवलं सुप्रत्ययाः, तिङ् प्रत्ययाः अपि विभक्तिश्च सूत्रेण विभक्तिसंज्ञकाः भवन्ति इति कृत्वा तत्र नाविभक्तौ तु स्माः इति सूत्रेण तस् इति मूलप्रत्यये सकारस्य लोपः अभूत्वा सकारः यथावत् तिष्ठति सः दन्त्यसकारः ससजुषोरुः करवसानयोर्विसर्जनीयः इत्याभ्यां सूत्राभ्यां सकारस्य विसर्गरूपं सिद्ध्यति. तादृशरीत्या सिद्धतिङ् प्रत्ययं साधयामः द्विवचने. अन्ति इति अपि तत्रापि सूत्राणि सन्ति. तत्र झि इति मूलप्रत्ययः अस्ति, किन्तु झि इत्यत्र झकारस्य स्थाने झोन्तः इति सूत्रेण अन्त् आदेशः भवति. अन्त् तत्र अन्तियोगः इ अन्ति, अन्ति इति सिद्धतिङ् प्रत्ययः. एवं रीत्या तीतः अन्ति इति सिद्धप्रत्ययाः. एते प्रत्ययाः तिङ् प्रत्ययः. तिङ् प्रत्ययाः सर्वे तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः. प्रत्ययः सार्वधातुकः नास्ति चेत् किं भवति इति अपि ज्ञातव्यम्. अग्रिमे परिच्छेदे लिखितमस्ति, पठतु.
आर्धधातुकसंज्ञका इति एतावत् न उक्तं. वस्तुतः अति सरलम् अस्ति तेषां कृते. सूत्रम् आर्धधातुकं शेषः धातुभ्यः ये प्रत्ययाः विहिताः तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा आर्धधातुकसंज्ञा भवति. अतः ये ये प्रत्ययाः धातोः परे सन्ति ते सार्वधातुकसंज्ञकाः न सन्ति चेत् अवश्यम् आर्धधातुकसंज्ञकाः सन्ति एव. आर्धधातुकं शेषः इति सूत्रेण अयमेव सन्देशः. धातोः धातोः अनन्तरं यः प्रत्ययः सः सार्वधातुकं नास्ति चेत् आर्धधातुकः अस्ति एव. तर्हि इदानीं पर्यन्त आर्धधातुकसंज्ञा इति शब्दः उपयोजितवन्तः, परन्तु तत् का इति न उक्तम् अस्ति. सूत्रम् आर्धधातुकं शेषः इति अस्ति. ये धातुभ्यः ये प्रत्ययाः विहिताः तेषां सर्वेषां यत्र प्रत्ययाः सन्ति तेषां प्रत्ययानां यत्र प्रत्ययाः सन्ति तत्र प्रत्ययाः अथवा सार्वधातुकः संज्ञा अथवा आर्धधातुकः धातुकसंज्ञा च. अतः ये धातोः परे सन्ति धातोः अनन्तरं ये प्रत्ययाः सन्ति ते सार्वधातुकसंज्ञकाः न सन्ति चेत् ते आर्धधातुकः संज्ञकाः सन्ति. यदि सार्वधातुकः संज्ञा इत्युक्ते षित्तिङ् न सन्ति चेत् आर्धधातुकः संज्ञकाः सन्ति.
साधु, तदेव भगिनि. अस्मिन् परिच्छेदे वाक्यस्य प्रामुख्यमस्ति. धातुभ्यः ये प्रत्ययाः विहिताः तेषां सर्वेषां प्रत्ययानां सार्वधातुकसंज्ञा अथवा आर्धधातुकसंज्ञा भवति इति वाक्यं प्रमुखमस्ति अस्मिन् परिच्छेदे. धातुभ्यः विहिताः प्रत्ययाः सार्वधातुकाः अथवा आर्धधातुकाः भवन्ति. इत्युक्ते किञ्चित् सार्वधातुकम् अपि च आर्धधातुकं शेषः इति सूत्रद्वयं धात्वधिकारे अस्ति. इत्युक्ते प्रत्ययाः धातुभ्यः विहिताः भवन्ति. कुत्रचित् प्रातिपदिकात् अपि प्रत्ययानां विधानं भवति, किन्तु अत्र अस्माकं विषयः तु धातुभ्यः विहिताः प्रत्ययाः कीदृशाः इति एव अस्माकं विषयः. प्रातिपदिकात् अपि प्रत्ययाः विधीयन्ते. यथा मया उक्तं, तत्र श्यञ् इति प्रत्ययस्य योजनेन तात्पर्यं तत्र मूल प्रातिपदिकात् विहितः. इत्युक्ते अत्र तु धातुभ्यः विहिताः प्रत्ययाः सार्वधातुकाः अथवा आर्धधातुकाः भवन्ति एव एव इति लिखितमस्ति. इत्युक्ते पूर्वं तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः के इति अस्माभिः ज्ञातम्. इत्युक्ते केन सूत्रेण सार्वधातुकसंज्ञा दीयते इत्यस्य उत्तरं तिंशित् सार्वधातुकं. केन सूत्रेण आर्धधातुकसंज्ञा दीयते तस्य उत्तरम् आर्धधातुकं. शेषः, शेषः इत्युक्ते शेषप्रत्ययाः, अपि च तिङ् इति उक्तमस्ति. तिङ् इति कथनेन अष्टादश तिङ्प्रत्ययाः. तत्पदं कथं निर्मितं? तिङ् इति प्रत्याहारः, तत्र अष्टादशप्रत्ययाः सन्ति खलु, नव परस्मैपदीनां कृते, नव आत्मनेपदीनां कृते अष्टादशप्रत्ययाः सन्ति. तत्र तिप् तिप् इत्यस्मात् आरभ्य महिङ् पर्यन्तं, महिङ् इति कथनेन अन्ते ण्यकारः अस्ति खलु, परस्मैपदी रूपेषु प्रथमपुरुषे एकवचनप्रत्ययः तिप् अस्ति, तिप् इत्यस्मिन् ति अस्ति, ति इत्यस्मात् आरभ्य आत्मनेपदी उत्तमपुरुष बहुवचनप्रत्ययः महिङ् पर्यन्तं सर्वेषाम् अष्टादशप्रत्ययानां मेलनं कृत्वा अष्टादशप्रत्ययानां स्थाने संक्षेपरूपेण तिङ् इति उक्तमस्ति. ते सर्वे तिङ् प्रत्ययाः, सर्वेषित् प्रत्ययाः, सर्वे तिङ् प्रत्ययाः सार्वधातुकाः एव, किन्तु ये सार्वधातुकभिन्नाः सन्ति ते सर्वे आर्धधातुकाः. अत्र पश्यन्तु, विहिताः इति पदमस्ति. विहिताः इति पदं भवती जानाति वा कथं साधितम्? महोदय वदतु.
पूर्वक धातोः चित्तप्रत्ययः.
उत्तमं, तदेव वि उपसर्गपूर्वकः धातोः रूपं पश्यन्तु. धातुतः क्ताप्रत्ययः, इत्युक्ते तस्मिन् ककारः इति संज्ञकः अस्ति. धातोः रूपमेव हित. तत्र एकं विशिष्टं सूत्रमस्ति, दधातेर्हि इति सूत्रेण धातोः प्रसङ्गे हि आदेशः भवति इति कृत्वा हित इति रूपं, धातोः क्तान्तरूपं किन्तु वि उपसर्गपूर्वकः. अग्रिमे वाक्ये वीणा भगिनी भवती पठतु.
चतुर्थबिन्दुः अस्ति, विकरणप्रत्ययाः धातोः परे सन्ति, अतः सर्वे विकरणप्रत्ययाः सार्वधातुकसंज्ञकाः अथवा आर्धधातुकसंज्ञकाः. धातोः किमपि धातुः अस्ति चेत् तस्य पुरतः सार्वधातुक अथवा आर्धधातुकप्रत्ययाः एव सन्ति, अतः ते सर्वे ये संज्ञा केवलं संज्ञा अस्ति, नामकरणम् एव अस्ति सार्वधातुक अथवा आर्धधातुक इति.
पश्यन्तु वाक्यं कीदृशरीत्या लिखितमस्ति, विकरणप्रत्ययाः धातोः परे आयान्ति, तस्मिन् प्रसङ्गे वदतु.
धातोः परे किमपि विकरणप्रत्ययः यथा शप् शन् शन् श्नु श इति आयान्ति, ते एव विकरणप्रत्ययः. धातोः ते एव विकरणप्रत्ययः न, सार्वधातुक स्टिङ्ग् अस्ति चेत् तत्र विकरणप्रत्ययः अस्ति, अर्धधातुक अस्ति चेत् अपि तत्र तदितप्रत्ययाः आगच्छन्ति, ते अपि विकरणप्रत्ययाः एव न.
अत्र किं ज्ञातव्यम् इत्युक्ते, विकरणप्रत्ययाः अपि धातोः परे आयन्ति इत्युक्ते विकरणप्रत्ययानां विधानं धात्वधिकारे भवति, एते प्रत्ययाः धातुभ्यः विहिताः भवन्ति. इत्युक्ते धातुतः केचन प्रत्ययाः विधीयन्ते, कीदृशप्रत्ययाः विधीयन्ते इति एकवारम् अवलोकयामः. धातुभ्यः विहिताः प्रत्ययाः विकरणाः सन्ति, इत्युक्ते धातुभ्यः विकरणप्रत्ययस्य विधानं भवति, तिङ्प्रत्ययस्य विधानं भवति, कृत्प्रत्ययस्य विधानमपि भवति. इत्युक्ते धातुभ्यः विहिताः प्रत्ययाः त्रिधा, इत्युक्ते विकरणप्रत्ययाः अपि धातुभ्यः विहिताः भवन्ति, तिङ्प्रत्ययाः अपि धातुभ्यः विहिताः, अपि च कृत्प्रत्ययाः. कृत्प्रत्ययाः इत्युक्ते ये प्रत्ययाः तिङ्गः न सन्ति ते कृत्प्रत्ययाः भवन्ति. तत्र एकं सूत्रमस्ति, कृद तिङ् अतिङ् एव कृत्.
ये कृदन्तप्रकरणम् इति अस्ति किल, एतत् कृत्प्रत्ययः तदेव विषयः वा?
तदेव महोदय, भवानेव उक्तवान् विहित इति पदमस्ति, तत्र विहित इत्यस्मिन् क्ताप्रत्ययः अस्ति, क्ताप्रत्ययः आर्धधातुकप्रत्ययः, अपि च तत्र क्ताप्रत्ययः तिङ् नास्ति किन्तु धातुभ्यः विहितः भवति. धा धातुतः क्ताप्रत्ययस्य योजनेन हित इति रूपं सिद्ध्यति इति उक्तवान्। इत्युक्ते धातुतः प्रत्ययस्य विधानं भवति, किन्तु सः क्ताप्रत्ययः तिङ् नास्ति। यः प्रत्ययः तिङ् नास्ति चेत् सः प्रत्ययः कृत् भवति, कृदतिङ् इति सूत्रेण ये प्रत्ययाः तिङ्गः न सन्ति ते कृत् प्रत्ययाः भवन्ति। अत्र विषयः तु धातुभ्यः विधीयमानाः प्रत्ययाः, विशेषतया विकरणप्रत्ययाः, सार्वधातुकाः अथवा आर्धधातुकाः भवन्ति एव। इदानीं धातुगणम् अनुसृत्य विकरणप्रत्ययाः कथं भिद्यन्ते, प्रत्येकस्मिन् गणे ईदृशविकरणप्रत्ययः अस्ति इति इदानीं चिन्तनीयं। भुवादिगणात् आरभ्य किञ्चित् चिन्तनं करणीयं। भगिनी, भुवादिगणे विकरणप्रत्ययः कः, तस्य स्वभावः कः, वदतु।
भुवादिगणे शप् प्रत्ययः अस्ति। भुवादिगणे शप् इत्युक्ते लसकु तद्दिते इति सूत्रेण तस्य इत्संज्ञा भवति, ततः पकारस्य अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, तदनन्तरं तस्य लोपः भूत्वा अ विकरणप्रत्ययः अवशिष्यते अत्र, तथा एव न
अदादिगणे किं भवति।
अदादिगणे भवती प्रतिपादयति लुक् इति भवति, शपः इत्युक्ते लुक्, लुक् इत्युक्ते लोपः भवति, तत्र विकरणप्रत्यय प्रत्ययः नास्ति। अस् धातुः उदाहरणं स्वीकृत्य अस्ति इति भवति अदादिगणे, तत्र लोपः भवति, विकरणप्रत्ययः अत्र न आगच्छति।
अस् धातुं स्वीकृत्य ति इति तिङ् प्रत्ययं योजयामः, तत्र शपः कार्यं नास्ति, शपः लुक् भवति। अस्मिन् प्रसङ्गे इतोपि किं ज्ञातव्यम् इत्युक्ते, अदादिगणे शप् प्रत्ययस्य लोपः लुक् इति रूपेण भवति, इत्युक्ते तत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रेण प्रत्ययस्य लोपः भवति चेदपि प्रत्ययलक्षणं तिष्ठति इति एकः नियमः अस्ति, किन्तु अदादिगणे आदौ शप् आयाति किन्तु नालुमताङ्गस्य इति सूत्रेण धातौ अङ्गकार्यं न भवति। किमर्थं चेत् तत्र शपः लुक् भवति, लुक् इत्युक्ते लू इति शब्देन यः लोपः भवति, लुक् अथवा श्लू एतैः शब्दैः प्रत्ययस्य लोपः भवति चेत् तदा प्रत्ययाश्रितं कार्यं यत् कार्यमस्ति तत् कार्यं न भवति। तत्र प्रत्ययस्य लोपानन्तरं प्रत्ययाश्रितं कार्यं यद् भवति स्म तत् कार्यं न भवति नालुमताङ्गस्य इति सूत्रेण। इत्युक्ते विधीयमानं यत् अङ्गकार्यम् अस्ति तत् अङ्गकार्यम् अदादिगणे न भवति, एतावता शपं निमित्तीकृत्य यद् अङ्गकार्यम् अदादिगणे भवति स्म तादृशं कार्यं न भवति, शपः लुक् भवति इति कारणतः। किन्तु तत्र तिङ् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवितुम् अर्हति, भवती जानाति वा इङ् इति एकः
गुणकार्यं भूत्वा एति इति भवति,
तत्र कीदृशं कार्यम् अभवत् वदतु।
गुणकार्यं भवति न ई, अत्र अहं सम्यक् न जानामि, एति इति भवति एति एतः।
गीताञ्जलि भगिनी वदतु।
ई तु इगन्तं धातु एव, इत्युक्ते सार्वधातुकार्धधातुकयोः इति सूत्रं प्रसक्तिः। ती तिप् प्रत्यय परे इत्युक्ते टिप् अस्ति चेत् पित्वत् अस्ति, अपि च सार्वधातुकप्रत्यय अस्ति इत्युक्ते गुणकार्यं भवति इत्युक्ते इ ए भवति एति इति निष्पन्नं भवति।
उत्तमं। शप् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं न भवति, किन्तु तिङ् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति, तदर्थमेव तत्र प्रथमपुरुष एकवचनप्रत्ययः तिप् अस्ति, तत्र तिप् इत्यस्मिन् प्रत्यये पित्वम् अस्ति इति कारणतः प्रथमपुरुष एकवचनरूपे गुणकार्यं भवति इति कृत्वा इङ्गतौ इत्यस्मिन् धातौ गुणकार्यं भूत्वा एति इति रूपं सिद्ध्यति। किन्तु द्विवचनरूपम् इतः वदतु, तत्र किम् अभवत्।
इतः तत्र तु इतः तिप् नास्ति, तस् अस्ति इत्युक्ते अपित् अस्ति, प्रत्ययस्य स्वभावः अपित् अस्ति, अपित् अस्ति कारणात् गुण न भवति, न भवति चेत् इतः एव इत्युक्ते इ एव तिष्ठति, तः तु वर्ण मेलनेन इतः इति भवति।
उत्तमम्। इ इति धातुः अस्ति, औपदेशिकधातुः तु इङ्गतौ अस्ति किन्तु अनुबन्धलोपे सति इ इति इगन्तधातुः एव तः इति सिद्धतिङ् प्रत्ययः तः इति कथं साधितम् अहं पूर्वम् उक्तवती खलु तस् इत्यस्मात् तः आयाति ई योगः तः इतः इति द्विवचनरूपं भवति एकवचनरूपम् एति द्विवचनरूपम् इतः तस् प्रत्ययः अपित् प्रत्ययः अस्ति इति कारणतः तत्र गुणकार्यं न भवति जुहोत्यादिगणे किं भवति भवती एव वदतु
जुहोत्यादिगणे शपः श्लु लोपः अपि अत्र यथा दादिगणे लुक् भवति अधुना तु लोपः भवति शप् अपि श्लु लोपः भवति तत् कारणेन विकरणप्रत्यय नास्ति किन्तु जुहोत्यादिगणे द्वित्वं भवति तत्तु भिन्नकार्यं वदामि वा भगिनी
किञ्चित् वदतु
अस्तु जुहोत्यादिगणे हू धातु स्वीकरोमि वा भगिनी
विशेषतया अग्रे चिन्तयामः विकरणप्रत्ययस्य प्रसङ्गे किं भवति इति अवगन्तुं
विकरणप्रत्यय अस्ति किन्तु लुक् भवति इत्युक्ते लोपः भवति इत्युक्ते नास्ति तत्र सो इत्युक्ते तस्य कारणं किमपि अपि नास्ति
उत्तमं तत्र श्लू इति शब्देन यः शप्रत्ययस्य लोपः भवति तादृशलोपः भवति चेत् तत्र शप्रत्ययं निमित्तीकृत्य यत् अङ्गकार्यम् अस्ति तत् कार्यं न भवति इत्युक्ते प्रत्ययाश्रितं कार्यं न भवति युहत्यादिगणे अपि चतुर्थः गणः दिवादिगणः दिवादिगणे किं भवति
सन्देहो भगिनि द्वितीय अदादिगणे शपः लुक् नाम लोपः द्वितीय जुहोत्यादिगणे शपः श्लु नाम लोपः तस्य वाट् इस् द बेसिक् डिफरेन्स् बिट्वीन् शपः एव श्लु इति लुक् इति लोपः भवति किल
श्लु इति पदेन तत्र लोपः भवति चेत् द्वित्वकार्यम् अवश्यं भवति किन्तु अदादिगणे द्वित्वकार्यं नास्ति
तदेव
तदर्थमेव तत्र भिन्नरीत्या नामकरणं कृतमस्ति तत्र लोपस्य नाम लुक् जुहोत्यादिगणे लोपकार्यस्य नाम श्लु भगिनि श्यन् प्रसङ्गे वदतु
अस्तु भगिनि श्यन् दिवादिगणे विकरणप्रत्यय श्यन् अस्ति श्यन् इत्युक्ते स्वभावः कः इत्युक्ते शकार अस्ति चेत् तिंशित् सार्वधातुकं सूत्रेण सार्वधातुकप्रत्ययः अस्ति सार्वधातुकप्रत्ययः तु अस्ति किन्तु विकरणप्रत्यये तु पकार नास्ति चेत् अपित् अस्ति चेत् गुणकार्यं न भवति तत्र इत्युक्ते यथा दिवादिगणे दिव् धातु अस्ति दिव् योगः श्यन् आयाति श्यन् तु लशक्वतद्धिते कारणेन शकार अपगच्छति हलन्त्यं कारणेन नकार अपगच्छति य एव तिष्ठति दिव् योगः य अपि च ति तिप् अस्ति चेत् प्रथम पुरुष एकवचनरूपं तिप् अस्ति चेत् ति आयाति किञ्चित् अन्यकार्यमपि तत्र अस्ति तद् कारणेन दीर्घत्वमपि भवति किन्तु गुण तु न भवति तत्र इति
उत्तमम्
अत्र दीर्घत्वं किमर्थं दिव् इति दीव् किमर्थं
तत्र एकं विशिष्टं सूत्रमस्ति महोदय
भगिनी अत्र पूर्वं धातोः परम् इति उक्तम् अत्र सूत्रे यदा विकरणप्रत्यय अस्ति तत्र दिवादिभ्यः इति पञ्चमी मध्ये अस्ति किल अतः तस्मादिति उत्तरस्य इति सूत्रेण धातोः परस्य इति अर्थः भवति किल अतः एव तत्र धातोः परस्य इति पूर्वम् उक्तम् अतः धातुः पञ्चम्याम् उक्तं विकरणप्रत्ययः तु अग्रे उक्तम् अस्ति इति कारणेन निमित्तीकृत्य पञ्चमी विभक्तिं निमित्तीकृत्य यत् कार्यमस्ति तद् परम् अस्ति
आं महोदय, तस्मादित्युत्तरस्य सूत्रेषु पञ्चम्यन्तं पदमस्ति चेत् पूर्वनिमित्तं परकार्यं, धातुः एव अङ्गं भवति, तत्र धातौ एव कार्यं भवति, तदर्थमेव धातुभ्यः प्रत्ययाः विधीयन्ते इति वदामः. महोदयेन पृष्टमासीत् तत्र दिव् दीव् कथं भवति इत्युक्ते तत्र हलिच सूत्रेण भवति. शन् प्रत्ययस्य स्वभावः तु अपित् षित् अस्ति, किन्तु अपित् अस्ति इति कारणतः सार्वधातुकम् अपित् अपि च क्निति च इत्याभ्यां सूत्राभ्यां गुणनिषेधः भवति. स्वादिगणे श्नुप्रत्ययः अस्ति. श्नुप्रत्ययस्य प्रसङ्गे निर्मला भगिनी भवती वदतु.
स्वादिगणे विकरणप्रत्ययः श्नु अस्ति. अत्र लशक् तदिते इति सूत्रेण शकारस्य लोपः भवति. तदनन्तरं नु एव अवशिष्यते विकरणप्रत्यये. अतः एकः उदाहरणं स्वीकुर्मः. आप् धातुः उदाहरणम्. आप् धातुः आप् योगः नु वा नो वा योगः तिङ् प्रत्ययः भवति. अतः नु नु ऊकारः अस्ति इति कारणेन नु नो भवति, गुणकार्यं भूत्वा नो भवति. अतः आप् नो ति इति भवति.
उत्तमं. श्नु प्रत्ययः अपि अपित् प्रत्ययः एव.
अपित् एव, अपित् एव. अस्तु.
श्नु इत्यस्मिन् शकारः इति संज्ञकवर्णः अस्ति इति कारणतः सार्वधातुकसंज्ञकः एव, किन्तु अपित्वात् सार्वधातुकम् अपित् क्निति च सूत्राभ्यां गुणनिषेधः भवति स्वादिगणे. आप् इति कथनेन तत्रापि इगन्तधातुः नास्ति गुणकार्यं भवितुं. श्नुप्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति एव, धातुः कोऽपि भवतु, किन्तु यद् गुणकार्यं तत्र दृश्यते आप्नोति इत्यस्मिन् पदे यद् गुणकार्यं तत्र भवत्या उक्तमस्ति तत् तिङ् प्रत्ययं निमित्तीकृत्य गुणकार्यं, न तु श्नुप्रत्ययं निमित्तीकृत्य. श्नुप्रत्ययस्य अपित्वात् गुणनिषेधः स्वादिगणे. तुदादिगणे वदतु.
तुदादिगणे तु विकरणप्रत्ययः ष अस्ति. शकारस्य लोपानन्तरं लशक्वसद्धिते इत्यनेन शकारस्य लोपः भवति. अतः अ एव अवशिष्यते. अतः धातुयोगः अयोगः तिङ् प्रत्ययः भवति रूपम्. उदाहरणं मिल् इति धातु स्वीकुर्मः चेत् मिल् अथवा लिक् धातु स्वीकुर्मः चेत् लिक् योगः अयोगः ति इति भवति. अत्रापि षित् अस्ति, किन्तु पकारः नास्ति, अतः निमित्तं नास्ति. अतः अ एव अवशिष्यते. अण्ड् तदनन्तरं गुणकार्यम् अपि न भवति. पकारः नास्ति, अपित् अस्ति इति कारणेन गुणकार्यं न भवति. अतः वर्णमेलनेन मिल् अति अथवा लिक् अति एव रूपं भवति.
उत्तमं. तदेव भगिनी. रुधादिगणेश्नम् इति विकरणप्रत्ययः आयाति. नरसिंह हेग्डे महोदय, भवान् वदतु अत्र श्नम् प्रत्ययस्य स्वभावः कः.
रुधादिगणेश्नम् अस्ति. रुधादिगणेश्नम् अस्ति. श्नम् मकार हलन्त्यम् इत्यनेन इत्संज्ञा भवति. शकार लशक्तदितेतनेन इत्संज्ञा भवति. तस्य लोप इत्यनेन द्वयव लोप भवति, न अवशिष्यते. शकारः अनुबन्धवर्णः अस्ति इत्यनेन षित् अस्ति. तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकं भवति. सार्वधातुकं प्रत्ययः अस्ति.
सार्वधातुकसंज्ञकः एव, किन्तु अपि प्रत्ययः. रुधादिगणे श्नम् इति विकरणप्रत्ययः धातोः मध्ये आगत्य उपविशति. तत्र श्नम् इत्यस्य मित्वकारणात् मित्वात् न इति भागः धातोः मध्ये आगत्य उपविशति. रुद्ध इति धातुः अस्ति चेत् रुणद् इति भवति, किन्तु तत्र रूपं रुणद्धि इति रूपम्. अन्यानि कार्याणि अपि भवन्ति इति कृत्वा तत्र रुणद्धि. न इति विकरणप्रत्ययस्य अवशिष्टभागः, न तु नकारः. तत्र नकारः अकारः च वर्णद्वयं.
सन्देहः भवति अत्र रुदादिगणे नकारस्य धातोः मध्ये आगन्तुं किमर्थं कारणं, किमपि कारणम् अस्ति वा, सूत्रम् अस्ति वा? एतद् गणे एव धातोः मध्ये आगत्य तिष्ठति.
परः भगिनि
श्नम् इत्यस्मिन् मकारः इति संज्ञकवर्णः अस्ति इति कारणतः मित्वकारणात् मेदचोन्त्यात् परः इति सूत्रेण मध्ये आयाति.
मित्तेव कारणम् अस्ति वा, मकारस्य इत्संज्ञा एव कारणम् अस्ति वा?
अस्ति. रुधादिगणे श्नम् विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति रुधादिगणे. रुधादिगणस्य प्रसङ्गे केचन अंशाः ज्ञातव्याः सन्ति. तत्र रुधादिगणे बहवः धातवः हलन्तधातवः एव, इगन्तधातवः न सन्ति. अपि च उपधायाम् इकवर्णः अस्ति वा इति चिन्तयामश्चेत् तदपि असाध्यमेव. किमर्थं चेत् उपधायां श्नम् इति कारणेन सः न इति धातोः मध्ये आगत्य उपविशति इति कारणतः पुगन्तलघुपधस्य च सार्वधातुकार्धधातुकयोः इत्याभ्यां सूत्राभ्यां प्रसक्तिः एव न भवति, गुणकार्यं न भवति. विकरणप्रत्यये अपि पित्वं नास्ति इति कारणतः गुणः न भवति. तथा एव धातुषु अपि तत्र आनुकूल्यं नास्ति. बहवः धातवः हलन्तधातवः सन्ति इति कारणतः तत्र विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति एव. कणादिगणः अष्टमः गणः. णत्वं भवति, रेफः अस्ति इति कारणतः दन्त्यनकारस्य स्थाने मूर्धन्यणकारः. हल्सन्धिकार्याणि अपि भवन्ति. किमर्थं चेत् तत्र अन्ते तिप्रत्ययः अस्ति, ति अस्ति, किन्तु रूपमस्ति रुणद्धि. हल्सन्धिकार्याणि अन्यानि अपि सन्ति. तनादिगणे
अनादिगणे ऊ अस्ति, ऊ न शित् अस्ति न तिङ् अस्ति, इत्यनेन सार्वधातुकं न भवति. आर्धधातुकशेष इत्यनेन आर्धधातुकप्रत्यये भवति.
विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति वा न वा?
अत्र गुणकार्यं भवति.
ऊ प्रत्ययस्य प्रसङ्गे किञ्चित् वदतु.
ऊ प्रत्यय अर्धधातुक अस्ति, अत्र अर्धधातुक सार्वधातुकम् अपि तु अस्ति, परन्तु तत् अत्र न अन्वयति. अपि तु सार्वधातुकं केवलं सार्वधातुकम् अस्ति चेत् एव अपि कार्यं करोति, अत्र अपि न कार्यं करोति. ऊ अर्धधातुक अस्ति चेत् अपि गुणकार्यं भवति अत्र.
साधु महोदय, तदेव श्रोतुमिच्छामि. अत्र ऊ प्रत्ययः आर्धधातुकप्रत्ययः, किञ्चित् नास्ति इति कारणतः. अपित्वमस्ति इति कारणतः सार्वधातुकम् अपित् अपि च क्निति च इत्याभ्यां सूत्राभ्यां प्रसक्तिः न भवति एव. पित्वम् अपित्वम् इति चिन्तनं केवलं सार्वधातुकप्रत्ययेषु एव भवति, किन्तु अयं प्रत्ययः आर्धधातुकः आर्धधातुकप्रत्ययः, अपि च अयम् ऊ प्रत्ययः कित् नास्ति, गित् नास्ति, नित् नास्ति. आर्धधातुकप्रत्ययः अस्ति चेदपि कित्वं गित्वं नित्वं नास्ति चेदेव गुणः भवति इति अपि अत्र स्मर्तव्यः अंशः. इत्युक्ते ऊ प्रत्यये कित्वं गित्वं नित्वं नास्ति. अग्रिमः गणः क्रयादिगणः. सुन्दरकल्याण महोदय, भवान् एव पठतु, अत्र किं वक्तव्यं?
क्रयादिगणे क्रीणाति, क्री इति धातुः अस्ति, श्ना श्ना इति विकरणप्रत्ययः अस्ति. श्ना इति शकारस्य लोपः अस्ति, षित् अस्ति, परन्तु ये अपित् अस्ति तत्कारणेन कारणेन गुणकार्यं न सम्भवति अत्रापि. क्रीणाति क्रीणाति इति क्रीञ्ज् क्रीञ्ज् धातु क्रीञ्ज् धातु क्रयादि क्रयादिगणे अस्ति क्रीञ्ज् धातु क्रीणाति क्रयादिगणे क्रीञ्ज् इति धातु क्री इति एव अवशिष्यते अनुबन्धलोपानन्तरं क्री योगे शप् श्ना 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 प्रत्यये शकारस्य लोपः भवति लशक्वते इति कारणेन नावशिष्यते क्री योगे नकारं भवति नकारस्य नकारं भवति फैनल् फार्म् क्रीणाति इति अवशिष्यते
तदेव रेफकारणात् तत्र णत्वं भवति इति कृत्वा क्रीणाति इति रूपं सिद्ध्यति
भगिनी एकः सन्देहः अस्ति श्ना इति विकरणप्रत्ययः इति उक्तवती शकारः तु लशक्वतद्दिते इति सूत्रेण अपगच्छति किन्तु न इति आकारः अस्ति खलु उपदेशे अजनुनासिक इति न भवति वा
न भवति अनुनासिक आकारः नास्ति इति कृत्वा आकारस्य इति संज्ञा नास्ति न एव अवशिष्यते केवलं तालवीयशकारस्य लोपः एव भवति लशक्वतद्दिते इत्यनेन न अवशिष्यते क्रियोगः न योगः ति क्रीणाति तत्र रेफकारणात् दन्तनकारस्य स्थाने मूर्धन्यकारः आगतः अन्ते चुरादिगणे शप्रत्ययः अस्ति शुभदा भगिनी भवती वदतु
चुरादिगणे शप् अस्ति तत्र स्वार्थे णिच् इत्यनेन णिच् अपि एकः प्रत्ययः अपि आयाति तत्र चुर् इति धातुः स्वीकुर्मः चेत् चुर् योगः णिच् योगः शप् इति भवति चुर्योगणिच् इत्यनेन णिच् इति आर्धधातुकप्रत्ययः अस्ति अतः पुगन्तलघुपदस्य च इत्यनेन चुर् इति लघु उ इति अस्ति उपधायां तस्य गुणः भूत्वा चोर इति भवति अतः क्षम्यतां चुर् योगः णिच् इत्यस्य इ इति अवशिष्यते अतः चुरि इति भवति
न चुर् धातुः अस्ति उदुपथधातुः णिच् प्रत्ययः अस्ति णिच् इत्यस्मात् इकारः तत्र अवशिष्यते किन्तु णिच् प्रत्ययः आर्धधातुकप्रत्ययः णिच् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः इत्युक्ते णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं कुर्मः इत्युक्ते द्वादशसनादिप्रत्ययाः सन्ति तेषु अन्यतमः एव णिच् मूलधातुं स्वीकृत्य णिच् योजनेन नूतनधातोः निर्माणं भवति अत्र नूतनधातुः चोरि इति साधयितुं नूतनधातुं साधयितुं णिच् प्रत्ययः आर्धधातुकप्रत्ययः निमित्तम् अस्ति इति कृत्वा चुर्चोर् भवति
चुर्चोर् भवति पुगन्तलघुपदस्य च इत्यनेन ह्रस्व उकारस्य ओकारः भवति गुणभूत्वा अतः चोर् इति भवति चोर् योगः णिच् इत्यस्य इ इति अवशिष्यते तत् इ सो चोर् योगः इ योगः शप् इत्यस्य अ इति अवशिष्यते तत् अ योगः ति अतः सम्पूर्णतया वक्तुम् इच्छामि चेत् चुर् योगः क्षम्यतां चोर् योगः इ योगः अप् अ योगः ति इति सूत्रं भवति अतः चोरि योगः अ योगः ति इति अग्रिमं सोपानं भवति चोरि इत्यस्य चोरि योगः अ अत्र अ इति शप् इत्यस्य अवशिष्टभागः अतः शप् इति पित्वम् अस्ति अतः तत्र गुणः भवति चोरि इत्यस्य चोरे इति भवति चोरे योगः अ योगः ति इति भवति अत्र एचोयवायावः इत्यनेन चोरे इत्यस्य चोरय इति भवति सो चोरय योगः अ योगः ति अत्र चोरय योगः अ इत्यनेन वर्णमेलनं भूत्वा चोरय इति भवति. चोरय योगः ति अतः अन्तिमरूपं चोरयति इति सिद्ध्यति.
उत्तमं. चुरादिगणे आदौ णिचायति इति मुख्यविषयः. णिच् योजनेन नूतनधातोः निर्माणं भवति अथवा आतिदेशिकधातोः निर्माणं भवति.
चुरादिगणे कदापि पुगन्तम् आगच्छति कदापि पुगन्तं न आगच्छति. यथा जी जापयति इति जापि इति पदनिर्माणं धातुनिर्माणं भवति. कदापि चोरी इति पुगन्तं विना पदनिर्माणं भवति. तत् कथम् इति किञ्चित् संशयः.
आकारान्तधातुषु हुक् आगमः भवति विशिष्टसूत्रेण. स्थाधातुः आकारान्तधातुः, तस्य साधारण अणिजन्त लट् रूपं तिष्ठति, किन्तु अणिजन्तरूपं स्थापयति. तत्र स्थापयति इति रूपं साधयितुं स्थापि इति धातोः निर्माणं करणीयम्. इत्युक्ते स्थाधातुतः णिच् योजनेन स्थापि इति भवति. तत्र विशिष्टसूत्रेण पुक् आगमः भवति इति कृत्वा स्थापि इति पुगन्तमङ्गं सिद्ध्यति. आकारान्तधातुषु तदर्थमेव अर्ति ह्रीव्लि क्नोयि क्ष्मायि आताम् आताम् इति लिखितमस्ति. आताम् इति कथनेन आकारान्तधातुषु. नौ इत्युक्ते णिच् परे. चुर्धातोः आकारान्तधातुः नास्ति. अत्र इतोपि ज्ञातव्यः अंशः कः इत्युक्ते, औपदेशिकधातूनां धातुसंज्ञा भुवादयो धातवः इति सूत्रेण धातुसंज्ञा दीयते. किन्तु अत्र नूतनधातूनां धातुसंज्ञा सनाद्यन्ता धातवः इति सूत्रेण चोरि इत्यस्य धातुसंज्ञा भवति. यदा नूतनधातुः निर्मीयते तदा पुनः वयं विवक्षानुगुणं तिङ् प्रत्ययं योजयामः. इत्युक्ते कर्त्रर्थकसार्वधातुकतिङ् प्रत्ययं योजयामः. चोरि इति धातुतः कर्त्रर्थकसार्वधातुकप्रत्ययः तिङ् प्रत्ययं योजयामः चेत् तदा शप् विकरणप्रत्ययः मध्ये आयाति. चोरयति इति रूपं साधितवती भगिनी. साधु भगिनी, उत्तमरीत्या कृतवती. चोरय इति अङ्गं भवति तिङ् प्रत्ययं निमित्तीकृत्य. एतावता अत्र विषयः दशसु धातुगणेषु विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं गुणकार्यं.
प्रथमगुणकार्यं कदा किमर्थं सम्भवति? चुर् धातु चोरि इति परिवर्तनं परिवर्तने एकं गुणकार्यम् अस्ति किल, तत् कथं भवति?
चुर् इति धातुः उदुपधधातुः. णिच् योजयामः. चोरी इत्यस्य निर्माणं करणीयं. णिच् इत्यस्मात् ईकारः आगतः. णिच् प्रत्ययः सार्वधातुकः नास्ति, तिंशित् नास्ति इति कृत्वा आर्धधातुकं शेषः सूत्रेण आर्धधातुकः. आर्धधातुकः प्रत्ययः निमित्तमस्ति. तत्र सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपथस्य च सूत्रद्वयं किं वदति? पुगन्तलघुपथस्य च इत्यस्मिन् सूत्रे सार्वधातुकार्धधातुकयोः इत्यस्य अनुवृत्तिः अस्ति. चुर्योगः णिच् इत्यत्र णिच् आर्धधातुकप्रत्ययः. आर्धधातुकप्रत्ययः अस्ति चेदपि पुगन्तलघुपथस्य च इति सूत्रे सार्वधातुकार्धधातुकयोः इत्यस्य अनुवृत्तिः अस्ति. अत्र सार्वधातुकप्रत्ययः निमित्तं भवति भुवादिगणे, किन्तु अत्र चुरादिगणे आर्धधातुकप्रत्ययः आदौ निमित्तं भवति इति कारणतः पुगन्तलघुपथस्य च इत्यनेन चुर्चोर् भवति. चोर्योगः इ चोरि. अत्र सारांशः कः इत्युक्ते, भुवादिगणे शप् अस्ति इति कारणतः गुणकार्यं, चुरादिगणे अपि शप् अस्ति इति कारणतः विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं. तत्र शप् सार्वधातुकप्रत्ययः गणद्वये, किन्तु तनादिगणे उ इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति इति कारणतः गुणकार्यं भवति. एतावत् त्रिषु गणेषु विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति. अन्येषु अथवा अपरेषु गणेषु सप्तसु गणेषु गणविकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति इति अत्र सारांशः. त्रिषु गणेषु एव गणविकरणप्रत्ययम् आधारीकृत्य गुणकार्यं सम्भवति. अग्रिमे सप्ताहे अन्ये के के विषयाः सन्ति इति एकवारं पठिष्यामः. अधुना विरमाम. सर्वेषां धन्यवादाः.